ओम नमो भगवते वासुदेवाय। अथैकषष्टितमोऽध्यायः। श्रीशुक उवाच, एकैकशस्ताः कृष्णस्य पुत्रान् दशदशाबलाः, अजीजनन्न नवमान् पितुः सर्वात्मसम्पदा। गृहादनपगं वीक्ष्य राजपुत्र्योच्युतं स्थितं, प्रेष्ठं न्यमंसतस्वं स्वं न तत्तत्त्वविदः स्त्रियः। चार्वब्जकोशवदनायतबाहुनेत्र सप्रेमहासरसवीक्षितवल्गुजल्पैः, सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन्वनिता विभूम्नः। स्मायावलोकलवदर्शितभावहारी भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः, पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्यस्येन्द्रियं विमथितुं कर्णैर्न शेकुः। इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्। भेजुर्मुदा विरतमेधितयानुरागहासावलोकनवसङ्गमलालसाद्यम्, प्रत्युद्गमासनवरार्हणपादशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः, केशप्रसारशयनस्नपनोपहार्यैर्दासीशता अपि विभोर्विदधूस्मदास्यम्। तासां यादशपुत्राणां कृष्णस्त्रीणां पुरोदिताः, अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते। चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान्, सुचारुश्चारुगुप्तश्च भद्रचारुस्तथा परः। चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः, प्रद्युम्न प्रमुखा जाता रुक्मिण्यां नावमाः पितुः। भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा, चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः। श्रीभानुः प्रतिभानुश्च सत्यभामात्मजादश, साम्बः सुमित्रः पुरुजित् छतजिच्च सहस्रजित्, विजयश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः। जाम्बवत्याः सुतायेते साम्बाद्याः पितृसम्मताः। वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः, आमः शङ्कुर्वसु श्रीमान् कुन्तिर्नाग्नजिते सुताः। श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः, शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोवरः। प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः, माद्र्याः पुत्रा महाशक्तिः सह ओजो पराजितः। वृको हर्षो निलो गृध्रो वर्धनोन्नाद एव च, महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः। सङ्ग्रामजित् बृहत्सेनः शूरः प्रहरणोरिजित्, जय सुभद्रो भद्राया वाम आयुश्च सत्यकः। दीप्तिमान्स्ताम्रतप्ताद्यारोहिण्यास्तनया हरेः, प्रद्युम्नाच्यानिरुद्धो भूद्रुक्मवत्याम् महाबलः। पुत्र्याम् तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे, एतेषाम् पुत्रपौत्राश्च बभूवुः कोटिशो नृप। मातरः कृष्णजातानाम् सहस्राणि च षोडश। राजोवाच, कथम् रुक्म्यरिपुत्राय प्रादाद्दुहितरम् युधि, कृष्णेन परिभूतस्तम् हन्तुम् रन्ध्रम् प्रतीक्षते। एतदाख्याहि मे विद्वन्द्विषोर्वैवाहिकम् मिथः, अनागतमतीतम् च वर्तमानमतीन्द्रियम्, विप्रकृष्टम् व्यवहितम् सम्यक् पश्यन्ति योगिनः। श्रीशुक उवाच, वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया, राज्ञः समेतान् निर्जित्य जहारैकरथो युधि। यद्यप्यनुस्मरन् वैरम् रुक्मीकृष्णावमानितः, व्यतरद्भागिनेयाय सुताम् कुर्वन् स्वसुः प्रियम्। रुक्मिण्यास्तनयाम् राजन् कृतवर्मसुतो बली, उपयेमे विशालाक्षीम् कन्याम् चारुमतीम् किल। दौहित्राया निरुद्धाय पौत्रीम् रुक्म्य ददाद्धरेः, रोचनाम् बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया। जानन्न धर्मम् तद् यौनम् स्नेहपाशानुबन्धनः, तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ। पुरम् भोजकटम् जग्मुः साम्ब प्रद्युम्नकादयः, तस्मिन्निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः, दृप्तास्ते रुक्मिणम् प्रोचुर्बलमक्षैर्विनिर्जय। अनक्षज्ञो ययम् राजन्नपि तद्व्यसनम् महत् इत्युक्तो बलमाहूय तेनाक्षैरुक्म्यदीव्यत। शतम् सहस्रमयुतम् रामस्तत्रा ददेपणम्, तम् तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम्। दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः, ततो लक्ष्यं रुक्म्य गृह्णात् ग्लहं तत्र जयत् बलः जितवानहमित्याह रुक्मी कैतवमाश्रितः मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ज्यात्यारुणा क्षोतिरुषा न्यर्बुदं ग्लहमाददे तं चापि जितवान् रामो धर्मेण छलमाश्रितः रुक्मी जितं मयात्रे मे वदन्तु प्राश्निका इति तदा ब्रवीन्नभो वाणी बलेनैव जितो ग्लहः धर्मतो वचनेनैव रुक्मी वदति वै मृषा तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः सङ्कर्षणं परिहसन् बभाषे कालचोदितः नैवाक्षको विदा यूयं गोपाला वनगोचराः अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः क्रुद्धः परिघमुद्यम्य जग्ने तं नृम्न संसदि कलिङ्गराजं तरसा गृहीत्वा दशमे पदे दन्तानपातयत्क्रुद्धो यो हसत् विवृतैर्द्विजैः अन्ये निर्भिन्नबाहूरु शिरसो रुधिरोक्षिताः राजानो दुद्रुवुर्भीता बलेन परिघार्दिताः निहते रुक्मिणी श्याले नाब्रवीत् साध्व साधु वा रुक्मिणी बलयो राजन् स्नेहभङ्गभयाद्धरिः ततो निरुद्धं सह सूर्ययावरं रथं समारोप्य ययुः कुशस्थलीम् रामादयो भोजकटाद्दशार्हा सिद्धाखिलार्था मधुसूतनाश्रयाः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे अनिरुद्धविवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।